ॐ श्री गणेशाय नमः। ॐ श्री हनुमते नमः। पञ्चमुखे हनुमते नमः। पञ्चवक्त्रम् महाभीमम् त्रिनेत्रम् च महाबलम् सिंहिका गर्भसम्भूतम् हनुमन्तम् नमाम्यहम्। ॐ हम हनुमते रक्ष रक्ष सर्वतो माम्। ॐ हम हनुमते रक्ष रक्ष सर्वतो माम्। ॐ
पूर्वे हनुमान् कपिमुखधारी रक्षतु माम्। दक्षिणे नारसिंह वपुर्मान् सदा पातु। पश्चिमे गरुडरूपवान् रक्षतु। उत्तर दिशि वराहरूप सदा रक्षतु माम्।
पूर्वे हयग्रीव विग्रह पातु मे शिरः।
अधस्तात् ब्रह्मास्त्र रूप पातु पादयुग्मं सदा मम। पञ्चवक्रः स्वप्ने जाग्रति गच्छत पश्यतः शयानम्। पश्यन्तम् हसन्तम् चलन्तम् सर्वदा रक्षतु हनुमान् महाबलः।
ॐ भक्षणीतुताय महाबलाय रामदूताय नमः। ॐ किलकिलाय वीराय विक्रन्ताय नमो नमः। ॐ भूतप्रेत पिशाचादिनाशाय स्वाहा। ृशानुवत्कवचम्मे हनुमान स्थापयतु।
राम भक्ताय रामदूताय हनुमते नमः। सर्वशत्रुनिवारणाय कवचम् पठे। रक्षा कुरु महाबाहो त्राहि त्राहि नमोऽस्तु ते।
हनुमते नमः। ॐ
अग्नी गर्भसम्भूतमारुतात्मजमुत्तमम्। श्रीरामप्रियम् भक्तम् वन्दे लङ्का भयङ्करम्। पञ्चमुखम् दरम् देवम् हनुमन्तम् नमाम्यहम्। पूर्वम् तु वानरम् वक्त्रम् कोटिसूर्यसम् प्रभम्।
दक्षिणनारसिंहम् च भयनाशम् सदा स्मरे। हयग्रीवमुखम् शङ्खचक्रगदाधरम्।
एवम् पञ्चमुखम् रूपम् हनुमन्तम् महाबलम्। यो स्मरेत् प्रातरुत्थाय सर्वशत्रुभयम् हरे।
नाशयेत् दुःस्वप्नम् शुभम् दुष्टग्रहसमुद्भवम्। अविचाराणि सर्वाणि मन्त्रतन्त्राणि भूतले। स्थावरार्थम् न मुञ्चेत् वक्त्रम् हनुमतम्।
यम् यम् चिन्तयते कामम् सन्तम् प्राप्नोत्यतम् श्रियम्।
श्रीराम जय राम जय जय राम। श्रीराम जय राम जय जय राम। ॐ हम हनुमते रुद्रावताराय नमः। ॐ पञ्चमुखी हनुमते नमः। ॐ रक्ष रक्ष हनुमते नमः। ॐ हम हनुमते रुद्रावताराय नमः। ॐ पञ्चमुखी हनुमते नमः।